एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना रामचन्द्र पौडेलेन आयव्ययक सम्बद्धानि त्रीणि विधेयकानि ह्यः प्रमाणीकृतानि सन्ति। राष्ट्रपतिना पौडेलेन प्रमाणीकृतेषु विधेयकेषु एतद् विक्रमवर्षीयाणि विनियोजना विधेयकम्, आर्थिक विधेयकम्, राष्ट्र ऋणोत्थापन विधेयकम् च वर्तन्ते। संघीय संसदा पारितीकृत्य नेपालस्य संविधानस्य अनुसारेण प्रमाणीकरणाय प्रस्तुतम् विधेयकत्रयम् राष्ट्रपतिना प्रमाणीकृतमिति राष्ट्रपतेः कार्यालयस्य प्रवक्ता शैलजा रेग्मी भट्टराई अज्ञापयत्। प्रतिनिधि सभाया गतदिवसीय उपवेशन चक्रवृद्धि धन सम्बद्ध विधेयकम् पारितीकृतम् वर्तते। विधि न्याय संसदीय विषय मन्त्रिणा धनराज गुरूङ इत्यनेन प्रस्तुतम् राज्य संहिता सम्बद्धम् कतिचित् नेपाल अधिनियमान् संशोधयितुम् निर्मितम् एतद् विक्रम वर्षीयम् विधेयकम् पारितीभूतमिति सभामुख देवराज घिमिरे उदघोषयत्। एतस्य विधेयकस्य पारितीकरणानन्तरम् अतः परम् अनुचिता दान प्रदान सम्बद्ध कार्यम् अपराधो भविष्यति। तत्पूर्वं प्रतिनिधिसभायाः गतदिवसीयोपवेशे कतिचिन् नेपालादिनियमान् संशोधयितुम् निर्मितम् एतद् वैक्रमाब्दम् विधेयकम् प्रस्तुतम् आसीत्। शान्तिपूर्ण राजनीतौ आगमनत्वेन द्वन्द्वरतैः राजनैतिकदलैः सह सर्वकारेण संविधायाम् विहितायाम् सत्याम् तेषाम् विरूद्धे न्यायालये विचाराधीनानाम् राजनैतिक प्रकृतेः न्यायिक प्रकरणानाम् प्रत्यावर्तन प्रवृत्ति व्यवस्थायुतम् विधेयकमिदम् संसदि प्रस्तुतम् वर्तते। तत्पूर्वम् उपवेशे सांसदैः ज्ञान बहादुर साई, प्रेम सुबाल, शोभिता गौतम, सुमना श्रेष्ठ, पंजीकारिता कचित नेपालादि नियमान संशोधयितुम् निर्मितम् एतद् वैक्रमाब्दम् विधेयकम् संसदि प्रस्तोतुम् अनुमति याचन सम्बद्ध प्रस्तावस्य विरोध विषयिणी सूचना बहुमतेन अस्वीकृता आसीत्। तदनन्तरं सभामुख देवराज घिमिरे विधि न्याय संसदीय विषय मन्त्रिणे धनराज गुरूङ इत्यस्मै विधेयकम् प्रस्तोतुम् अनुमतिम् अदात्। मन्त्रिणा गुरूङ इत्यनेन विधेयकम् प्रस्तुतम् तदनु राष्ट्रिय स्वतन्त्र राष्ट्रिय प्रजातन्त्र दलयोः सांसदाः विरोधस्य सूचना निर्णयार्थम् प्रस्तुतव्येति अभियाच्य उपवेश सञ्चालन स्थलम् परिवेष्टितवन्तः। ततः सभामुख घिमिरे पञ्चदश कलावधये उपवेशम् अस्थगयत्। तत्पश्चात् पुनः उपविष्टे द्वितीयोपवेशे एतद् विक्रम वर्षीयम् नेपालाद विश्वविद्यालय विधेयकम् विमृश्यताम् इति विषयकः प्रस्तावः विमृष्टः आसीत्। तत्पूर्वम् उपवेशस्य उपक्रमे आकस्मिक समये सांसदाः सहकारी क्षेत्रे उत्पन्नाः समस्याः संवादस्य माध्यमेन समाधातुम् अभ्ययाचन्त। सांसदाः लम्पिस्किन रोगस्य प्रकोपेण पशु चतुष्पादानाम् मृत्युक्रमस्य नैरन्तर्याद पशु चतुष्पादानाम् सुरक्षण कोषस्य व्यवस्थाम् विधातुम् सर्वकारस्य ध्यानम् आकर्षयति। सांसदाः देशे विमानयात्रायाः सततम् असुरक्षणम् आदृत्य सर्वकारस्य ध्यानम् आकर्षयन्तः। इमाम् यात्राम् सुरक्षिताम् मर्यादिताम् च विधातुम् सर्वकारेण गभीरेण भाव्यमित्यत्र बलम् प्रादुः। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव श्रावणस्य दशमे दिवसे बुधवासरे दिवा एकवादने वस्ता। वन्य छत्राकस्य भक्षणेन ह्यो रोल्पा जनपदे एकस्यैव परिवारस्य त्रयो जनाः मृताः सन्ति। मृतकेषु रोल्पा जनपदस्य लुङ्ग्री ग्रामपालिकायाः पञ्चमवडा क्षेत्रवर्तिनः कालापोखरा स्थानस्य त्रयस्त्रिंशत् वर्षीया भीमा गुरूङ, तदीय पुत्रौ एकादश वर्षीयः सुशील गुरूङ, षड्वर्षीयः प्रेम गुरूङ च सन्तीति रोल्पा जनपद प्रहरी कार्यालयो ज्ञापयति। ते बुटवलवर्तिनी लुम्बिनी प्रादेशिक चिकित्सालये उपचारस्य क्रमे अम्रियन्त इति रोल्पा जनपद प्रहरी कार्यालयस्य प्रवक्ता प्रकाश भूषालः असूचयत्। ललिता निवास भूम्याः अपचलनस्य प्रकरणे निगृहितानाम् सप्तदश जनानाम् अनुसन्धानाय प्रहरिणा अतिरिक्तानि पञ्चदिनानि प्राप्तानि सन्ति। प्रहरिणा केन्द्रीयानुसन्धान निकायेन ह्यः काष्ठमण्डप जनपद न्यायालये आरोपिणाम् प्रस्तुतेः अनन्तरम् अतिरिक्तानुसन्धानाय पञ्चानाम् दिनानाम् अवधिः प्राप्तो स्थिति केन्द्रीयानुसन्धान निकायस्य प्रहरी वरिष्ठोपरीक्षकः दिनेश आचार्यः अज्ञापयत्। घटनायाम् प्रहरिणा संचार मन्त्रालयस्य सचिवेन कृष्णबहादुर रावत इत्यनेन, भटनी आपणागारस्य सञ्चालकेन मीनबहादुर गुरूङ इत्यनेन, निर्वाचन आयोगस्य पूर्वायुक्तेन सुधीर कुमार साहेन च सहिताः सप्तदश जनाः निगृहिताः सन्ति। एतेषाम् विरूद्धे विंशत्यधिक द्विसहस्रतम विक्रम वर्षीय राज्याधिनियम उद्देश्य कृत्रिम प्रपत्र निर्माण सम्बद्धापराधे संगठितापराधे च प्रहरिणानुसन्धानम् विधीयमानम् अस्ति। प्रधान न्यायाधीश हरिकृष्ण कार्की कथयति यथासमयं न्यायाधीशानां नियुक्तये शीघ्रं न्याय परिषद उपवेशम् आकारयितुं पूर्वकार्यं विधीयमानं वर्तते। सांविधानिक न्यायिक पत्रकार मञ्चस्य पदाधिकारिभिः ह्यः सम्पन्ने मेलने असौ अवदत् यथासमयं न्याय परिषद उपवेशस्य आयोजनायाः अभावात् न्यायाधीशानां नियुक्ति प्रक्रियायां विलम्बः जायमानो वर्तते। न्यायाधीशानां नियुक्ति प्रक्रियायां विलम्बनस्य कारणेन न्यायिक प्रकरणानां निर्णयनाय काठिन्य सर्जनस्य हेतोः यथासम्भवं शीघ्रं परिषद उपवेशम् आयोजयितुं पूर्वकार्यं विधीयमानम् अस्तीति असौ अकथयत्। प्रधान न्यायाधीश कार्की सर्वोच्च न्यायालये न्यायिक प्रकरणानां निर्णयन प्रक्रिया तीव्ररूपेण अग्रे वर्धापिता स्थिति चर्चयन अभाषत। वर्तमान पद्धत्या कार्येषु विहितेषु सत्सु वर्षद्वयाभ्यन्तरे प्राक्तन न्यायिक प्रकरणानि निर्णेतुं शक्यन्ते। सर्वकारेण शिलातैलीय पदार्थानां स्वचालित मूल्य प्रणालीं क्रियान्वेतुं निर्णीतमस्ति। उद्योग वाणिज्यापूर्ति मन्त्रालयस्य अन्तर्गतेन नेपाल तैल निगमेन गतरात्रौ द्वादशवादनत स्वचालित मूल्य प्रणाली क्रियान्विता स्थिति ज्ञापितं वर्तते। निगमस्य संचालक समिते ह्यस्तनोपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्य उद्योग मन्त्रालये आयोजिते पत्रकार सम्मेलने मन्त्रालयस्य सचिव निगम संचालक समिते अध्यक्षश्च मधुकुमार मरासिनी निगमस्य अनेन निर्णयेन जनतायै व्यवसायिभ्यश्च सौविध्यं मिलतीति विश्वासं व्यक्तवान्। विमानेन्धनस्य सम्बन्धेतु वर्तमान व्यवस्था एव यथावद् अस्ति। अतः परं भारतीय तैल निगमेन ख्रीष्टवर्षस्य प्रतिमासं प्रथम षोडश दिवसयोः प्राप्तायाः नूतन मूल्यसूचेः अनुसारेण शिलातैलीय पदार्थानां स्वचालित मूल्यं निर्धारयिष्यते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् आर्थिक वर्ष द्वय पूर्वस्य प्रतिवेदनं प्रस्तुतं वर्तते। शीतलनिवासस्थिते राष्ट्रपति कार्यालये आयोजिते समारोहे राष्ट्रपतेः पौडेलस्य समक्षं प्रधान न्यायाधीश हरिकृष्ण कार्की प्रतिवेदनमिदं प्रस्तोत। अद्य आराष्टम श्रावण संक्रांति पर्व समायोज्यते। अद्य सौरमानानुसारेण सूर्यो दक्षिणायनम एत्य कर्कट रेखायाः उपरि प्राप्नोतीति हेतोः दिवसोऽयं कर्कट संक्रांति नाम्ना अपि प्रथितो वर्तते। कृषि प्रधान देशे नेपाले आषाढ मासे भीतेन कृषिकर्मणा श्रान्त कृषकैः पंकजातं प्रक्षाल्य स्वकीयैः बन्धुमित्रैः सह प्रमोदावहे वातावरणे अद्य भोजनं भुज्यते। आषाढ मासस्य पंकस्य कारणेन सम्भाव्याद् रोगाद् रक्षितुं चर्मरुजो निराकरणस्य च उद्देश्येन पर्वेदम् आयोज्यमानं वर्तते इति लोकविश्वासोऽस्ति। अद्य निम्ब जम्बीर दाडीमा प्रवृद्धिकानि फलानि समर्प्य कण्डारक नामकस्य रक्षसः पूजनात् चर्मरोगस्य प्रकोपात् मुक्तिः प्राप्यते इति विश्वासेन विविधं वनस्पतिजातं प्रज्वाल्य प्रतिगृहं चतस्रिषु दिक्षु उल्मुखमाध्यमात् चर्मरोग प्रक्षेपण प्रचलनं विद्यते। पशुपतिनाथ मन्दिरे श्रावणस्य प्रथम सोमवासरे अद्य भक्तजनानां कृते दर्शनाय सुव्यवस्था विहिता अस्ति। सुरक्षा स्वयंसेवक परिचालन दर्शन व्यवस्थापन स्वास्थ्य शिविर पेयजल प्रवृत्तिनि सम्पूर्ण कार्याणि प्रपूरितानि सन्तीति पशुपति क्षेत्र विकास कोषेण ज्ञापितं वर्तते। श्रावण मासस्य सोमवासरेषु पाशुपत क्षेत्रे लक्षशो भक्तजनाः प्राप्नुवन्ति इत्यतः प्रातः त्रिवादनात् एव द्वारचतुष्टयम् एव उद्घाट्य भक्तजनाः दर्शनं कुर्वन्तः सन्तीति पशुपति क्षेत्र विकास कोषस्य संस्कृति संरक्षण महाशाखायाः प्रमुखः गौरीशंकर पराजुली ज्ञापयति। महाशिवरात्रेः हरितालिका पर्वणश्चैव सर्वमपि सुरक्षादि कार्याणां व्यवस्थापनं विहितमस्तीति कोषेण ज्ञापितं वर्तते। इति समाचाराः।